दस मार पीरित इति तदुभय सेना गट्टयन्तं विविध पतरनेसं उग्गिरन्ति गिरन्ति सतत बुहित वेला सागरूमीव हन्तं दुलित दुलित चिंता युद्ध निन्नाधतासु इति मुनि ककुसंधो दीप मागम अमितं बहुल जननिकायं निभूतिं पापुनित्वा निदहिति च सिरिसंबोधि साकञ्च नित्वा निदहिय गगनं हा जम्बुदीपं अगन्नि एवम्पि को नागमनो मुनिन्दो दत्त्वा बहूनां फलमग्गदानं नित्वानतो दुम्बरबोधिसाकं निदाय गाजम्बु सिरिउह दीपं एवम्पि कस्सपजिनो वरमण्डदीपं पत्तो फलग्गरतनो बहुनो जनस्स दत्वान आनय ततो वटबोधिसाकं रोपापयित्व मगमा पुनजम्बुदीपं परोवदन्तो चितकूटकुम्भो अनेक सोंडिक सवन्ति भन्ते योनिजरा सारमदप्पवागो गजेरिवा भाति सुराभिपंसे तस्मिं समन्त नगबुद्ध तिलोकनातो चब्बन्न रंसि सिकरं दिशि पत्थरन्तो बिकुहि सो परिवुतो परसागरन्तं ओलोकयं तिथमकासि अनोमवन्नो लंका वधू सुमनकूट सिलुच्च येन सज्ञेति अंग जिनराज मनीवहन्तो इच्छत्तिदं शिवपदं पटिवन्ति लोके तन्दानि भो भजतसि वितसब्बकालं दिवागुहायां भगवासंगो तत्त्वान तस्मिं पनकिञ्चिकालं महीयमानेषु सदेवकेषु तथागतो रोहन अम्बरं तस्मिं ससङ्गो मुनिधिगवापियं तूपायठानि परमाय भूमिया गरुं करोन्तो जनतं महीतले නිරෝධනාභාව නිසීදී සන්තජෝ විභංගමානං ගුරුලෝහි මජ්ජේ මගාගනානං පරමෝවසීහෝ මහායසෝමාර බලස්ස මජ්ජේ විසාරදෝවිත භයෝනිසීදී භවතු සම්බමංගලං රක්ඛන්තු සම්බදේවතා සම්බබුද්ධානුභාවේන සදාසොත්තේ භවන්තු තේ.